एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण सामाजिक सञ्जालस्य सञ्चालनस्य प्रयोगस्य नियमनस्य च विषयं व्यवस्थापयितुं निर्मितम् एतद् विक्रमवर्षीयं विधेयकं संघीय संसदि प्रस्तुष्यते। अशैव माघ मासस्य सप्तमे दिवसे उपविष्टस्य मन्त्री परिषद उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्य संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च पृथ्वी सुब्बा गुरूङ सामाजिक सञ्जालस्य सञ्चालन प्रयोग नियमन सम्बद्धं मन्त्रालयेन निर्मितं एतत् विक्रमवर्षीयं विधेयकं संघीय संसदि प्रस्तुतुं स्वीकृतिः प्रदत्ता अस्ति इति असूचयत्। एवमेव मन्त्री परिषद उपवेशेन एतत् विक्रमवर्षीयान् अर्थ मन्त्रालय सम्बद्धान् समपूरकानुदान सम्बद्धं कार्यविधिं विशेषानुदान सम्बद्धं कार्यविधिं च स्वीकर्तुं सहनिवेशन सम्बद्धं सप्तसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयं कार्यविधिं कोविड उनविंशतेः महामार्याः प्रभावितानाम् अतिविपन्नानां परिवाराणां वित्त हस्तान्तरण सम्बद्धं अष्टसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयं कार्यविधिं च निरसयितुं निर्णीतमस्ति इति मन्त्री गुरूङ अज्ञापयत्। कृषि सहकारी प्राकृतिक स्रोत समित्या दावा नलस्य नियन्त्रणस्य जनधनयोः क्षेतेः न्यूनीकरणस्य सन्दर्भे पञ्चदश दिनानाम् अभ्यन्तरे कार्ययोजनां निर्माय एकीकृत रूपेण तस्याः क्रियान्वयनं विधातुं सर्वकारः निर्दिष्टो वर्तते। समितेः ह्यस्तनोपवेशेन दावानलस्य नियन्त्रणाय सुरक्षा सावधानतायाः प्राप्त प्रशिक्षणायाः जनशक्तेः आवश्यक यन्त्रोपकरणानाञ्च पर्याप्त व्यवस्थां विधातुं वन वातावरण गृह मन्त्रालयौ निर्दिष्टौ स्तः। समित्या दावानलस्य कारकः यान् कान्नपि कठोरेण दण्डयितुं सर्वकारः निर्दिष्टो वर्तते। समित्या देशं लचकज पदार्थमुक्तं विधाय वातावरणस्य स्वच्छीकरणस्य सन्दर्भे आगामिनः विक्रमवर्षात् काष्ठमण्डप उपत्यकातः प्रारभणत्वेन आवश्यकं पूर्वकार्यं विधातुं वन वातावरण मन्त्रालयः निर्दिष्टोऽस्ति। उपवेशेत् वनदावानल सम्बद्ध विज्ञाः दावानलस्य प्रायः घटनाः मानवीय त्रुटि दुर्बलतायाः कारणेन सम्भवन्तीति भाषमाणः सावधानतायाः अवलम्बनस्य आवश्यकताम् न्यश्चिनन्। फाल्गुन चैत्र मासयोः अधिक दावानलस्य सम्भावना भवति। वर्षेऽस्मिन् शीतकाले वृष्टेः अभावस्य कारणेन संकटः अतिरिक्तः वर्धितः इत्युक्त्वा समये एव अतिरिक्त सावधानताम् अवलम्बितुं विज्ञः बलं प्रादुः। नेपाले प्रतिवर्षम् अष्टानां जनानां मृत्युः एकनवत्यां गृहेषु क्षतिश्च जायमाने स्तः इति तथ्याङ्काः वर्तन्ते। विज्ञः दावानलस्य सत्यासत्तस्य नियन्त्रणाय आधिकारिक व्यवस्थायाः प्राकृतिक स्रोत साधनोपकरणानाम् अभावस्य च कारणेन क्षतेः न्यूनीकरणाय सावधानताम् अवलम्बितुं बलं प्रादुः। विमर्शने वन वातावरण मन्त्री ऐनबहादुर शाही ठकुरी दावानलस्य नियन्त्रणस्य सन्दर्भे सम्बद्ध पक्षाः सावधानावस्थायां स्थापिताः सन्ति इति अज्ञापयत्। राष्ट्रिय स्वतन्त्र दलस्य सभापतेः पूर्व गृहमन्त्रिणः रवि लामिछाने विदस्य कथनविवरणक्रमः ह्य समाप्तोऽस्ति। ह्य प्रकथन विवरण ग्रहणक्रमस्य समाप्तोऽपि अद्य पुनः नियमनवारण सम्बद्ध विमर्शः भवतीति रूपन्देही जनपद न्यायालयस्य स्वस्तिदार पदीयः यज्ञमूर्ति गेवाली असूचयत्। दायित्व विशेषे अद्य प्रातः उपस्थापयितुं न्यायालयेन ह्य लामिछाने मुक्तोऽस्ति। रूपन्देही जनपद न्यायालयेन परिवारस्य अधिवक्तृणां च उत्तरदायित्वे मोक्तुं न्यायाधीशस्य प्रह्लाद कुमार योगिनः न्यायपीठेन आदिष्टमस्ति इति जनपद न्यायालयस्य श्रेष्ठदार पदीयः गिवाली असूचयत्। कोशी प्रदेशान्तर्गतस्य तेरथुम जनपदः मध्यपर्वतीय राजमार्गेण सुगमः विधीयमानोऽस्ति। राजमार्गस्य उनाशीत्युत्तराष्टशताधिकैकसहस्र किलोमीटर परिमिते मार्गे सप्तदशोत्तरैकशत किलोमीटर परिमितो मार्गः तेरथुम जनपदे वर्तते। तेरथुम जनपदस्य आश्रय ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य षष्ठ ओडा क्षेत्रे विद्यमानाया तमोर नद्या मझिमटार स्थानात तेह्र थुम प्रवेश मार्ग जनपदस्य चुहान डाँडावर्ती प्राक्तन शैक्षिक केन्द्रम आर्षाई क्षेत्रस्य प्राक्तन व्यापारिक केन्द्रम संक्रान्ति फेदापैथ्याख्यम मुख्य केन्द्रम म्यांगलुङम च स्थानम प्राप्य पर्यटकीय आपणात वसन्तपुरात अग्रे गच्छति। कर्णाली प्रदेशस्य विभिन्नेष् जनपदेष् वर्तमानार्थिक वर्षे चतुष्पञ्चाशत् सेतूनां निर्माणाय स्रोत सुनिश्चितमस्तीति प्रदेशस्य भौतिक पूर्वाधार नगरीय विकास मन्त्रालयेन ज्ञापितम् वर्तते। प्रदेशस्य रूकुम पश्चिम जनपदे द्वयोः सुर्खेत जनपदे द्वयोः दैलेख जनपदे द्वयोः मुहु जनपदे च द्वयोश्च यातायात सञ्चालन योग्यानां वज्रीकृत सेतूनां जाजरकोट जनपदे द्वयोः लौह सेतोश्च निर्माणाय स्रोत सुनिश्चितमस्तीति मन्त्रालयस्य सूचना अधिकारी प्रवीण कार्की अज्ञापयत्। एवमेव रूकुम पश्चिम जनपदे द्वयोः जाजरकोट जनपदे एकस्य कालीकोट जनपदे त्रयाणां दैलेख जनपदे अष्टानां जुम्ला जनपदे चतुर्णां सल्यान जनपदे सप्तानां डोल्पा जनपदे सप्तानां मुहु जनपदे त्रयाणां सुर्खेत जनपदे चतुर्णां हुम्ला जनपदे द्वयोः दोला सेतोश्च निर्माणाय स्रोत सुनिश्चितमस्तीति सूचना अधिकारी कार्की अज्ञापयत्। लौह सेतु द्वयस्य एक वर्षाभ्यन्तरे अन्येषां सेतूनां वर्षद्वयाभ्यन्तरे च निर्माण समय निर्धारितो वर्तते। नागरिकाणाम् अधिकारस्य स्थापनायै कृतजीवनोत्सर्गाणाम् हुतात्मनाम् संस्मृतौ अद्यतः आराश्रम विभिन्नै कार्यक्रमै सह हुतात्म सप्ताह आयोक्ष्यते। एकतन्त्रात्मकस्य राणा शासनस्य अन्यायेभ्य अत्याचारेभ्यश्च मुक्तिम् प्रदाय प्रजातान्त्रिक शासन व्यवस्थायाः स्थापनायै कृतजीवनोत्सर्गाणाम् संस्मरणे प्रतिवर्षम् माघमासस्य दशम दिवसात् षोडश दिवसम् यावत् विभिन्नै कार्यक्रमै सह हुतात्म सप्ताह आयोज्यते। सप्तनवत्यधिकैकोनविंश वैक्रमाब्दे विहितेन शुक्रराज गंगालाल धर्मभक्त दशरथ चन्द प्रभृतिनाम् हुतात्मनाम् विपुल योगदानेन आत्मबलिदानेन च चतुरधिक शतम् वर्षाणि यावत् शासनम् विदधत राणा सर्वकारस्य समाप्तिम् कृत्वा सप्ताधिक द्विसहस्रतमे विक्रम वर्षे नेपाले प्रजातन्त्रम् संस्थापितम् आसीत्। प्रजातन्त्रस्य स्थापनायै स्वतन्त्रतायै च निरंकुशस्य राणा शासनस्य विरुद्धम् आन्दोलनम् कृतमिति हेतुः राणा सर्वकारेण सप्तनवत्युत्तरैकोनविंश वैक्रमादस्य माघमासस्य दशम दिवसे काष्ठमण्डपस्य टेकुस्थाने शुक्रराज शास्त्रिणे तस्यैव मासस्य त्रयोदश दिवसे काष्ठमण्डपस्यैव शिफलस्थाने धर्मभक्त माथिमा विधाय माघमासस्यैव पञ्चदश दिवसे शोभा भगवती स्थाने दशरथ चन्दाय गंगालाल श्रेष्ठाय च मृत्युदण्ड दत्त आसीत्। अतः मुख्यतः तेषामेव चतुर्णाम् हुतात्मनाम् योगदानम् संस्मृत्य नेपाले द्वादशोत्तर द्विसहस्रतम वैक्रमाब्दात् प्रतिवर्षम् माघमासस्य दशम दिवसात् षोडश दिवसम् यावत् हुतात्म सप्ताह समायोज्यते। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा निगदति नेपालाय सम्भावित लाभस्थले वैदेशिक सहयोगः ग्रहीतुम् शक्यते। नेपाली कांग्रेस दलस्य आर्थिक नीति योजना विभागेन ललितपुरस्य सानेपा स्थाने आयोजिते कार्यक्रमे सभापतिः देउवा वैदेशिक सहयोगस्य विषये समये समये विरोध जायमानोऽस्तीति भाषमाणः देशस्य हिताय वैदेशिक सहयोगो ग्रहीतुम् शक्यते इति उदैरयत्। नेकपा एमाले दल संसदीय दलेन सर्वकारेण आनीतः अध्यादेशः नागरिकेभ्यः सहजतया सेवा प्रदानाय आनीतः सन्तीति ज्ञापितम् वर्तते इति समाचारः।